देवाय धीमहि तन्नः सर्व प्रचोदयात्। गणानां त्वा गणपतिगुं भवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणाम् ब्रह्मणस्पत आन शृण्वन्नोतिभिस्सीदसादनम् प्रणो देवी सरस्वती वाजेभिर्वाजिनीवती दीनामवित्रयवतु गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरि ओम्। भद्रं कर्णे विश्रुणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैः सुष्ठुवागुंसस्तनूभिः व्यशेम देवहितं यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्ताक्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्ददातु। ॐ शान्ति शान्ति शान्तिः। ॐ नमस्ते गणपतये त्वमेव प्रत्यक्षं तत्त्वमसि त्वमेव केवलं कर्तासि त्वमेव केवलं धर्तासि त्वमेव केवलं हर्तासि त्वमेव सर्वं खल्विदं ब्रह्मासि त्वं साक्षादात्मासि नित्यं ऋतं वच्मि सत्यं वच्मि अव त्वं माम् अववक्तारम् अवश्रोतारम् अवदातारम् अवधातारम् अवानुजानमवशिष्यम् अवपश्चात्तात् अवपुरस्तात् अवोत्तरातात् अवदक्षिणातात् अवचोद्वातात् अवाधरातात् सर्वतो माम् पाहि पाहि समन्तात् त्वं वाङ्मयस्वं चिन्मयः त्वमानन्दमयस्वं ब्रह्ममयः त्वं सच्चिदानन्दाद्वितीयोऽसि त्वं प्रत्यक्षं ब्रह्मासि त्वं ज्ञानमयो विज्ञानमयोऽसि सर्वं जगदिदं त्वत्तो जायते सर्वं जगदिदं त्वत्तस्तिष्ठति सर्वं जगदिदं त्वयि लयमेष्यति सर्वं जगदिदं त्वयि प्रत्येति त्वं भूमिरापो नलो निलो नभः त्वं चत्वारि वाक्पदानि त्वं गुणत्रयातीतः त्वं अवस्थात्रयातीतः त्वं देहत्रयातीतः त्वं कालत्रयातीतः त्वं मूलाधारस्थितोऽसि नित्यम् त्वं शक्तित्रयात्मकः त्वां योगिनो ध्यायन्ति नित्यम् त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमा त्वं ब्रह्म भूर्भुवस्सुवरो गणादिं पूर्वमुच्चार्य गणादीं सदनन्तरम् अनुस्वार परतरः अर्धेन्दुलसितम् तारेण रुद्रम् एतत्तव मनुस्वरूपम् गकारः पूर्वरूपम् अकारो मध्य मध्यमरूपम् अनुस्वारश्चात्यरूपम् बिन्दुरुत्तररूपम् नादसन्धानम् सगुंहिता सन्धिः सैषा गणेश विद्या गणकर्षिः निःसृत् गायत्री छन्दः गणपतिर्देवता ॐ गं गणपतये नमः एकदन्ताय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्तिः प्रचोदयात् एकदन्तम् चतुर्हस्तम् पाशमम् कुशधारिणम् रथम् च वरदम् हस्तैर्बिभ्राणम् मूषकध्वजम् रक्तम् लम्बोदरम् शूर्वकर्णकम् रक्तवाससम् रक्तगन्धानुलिप्ताङ्गम् रक्तपुष्पैः सुपूजितम् भक्तानुकम्पिणम् देवम् जगत्कारणमच्युतम् आविर्भूतम् च सृष्ट्यादौ प्रकृतेः पुरुषात् परम् एवम् ध्यायति यो नित्यम् स योगी योगिनाम् वरः नमो व्रातपतये नमो गणपतये नमः प्रमतपतये नमस्ते अस्तु लम्बोदरायैकदन्ताय विघ्ननाशिने शिवसुताय वरदमूर्तये नमः ॐ शान्ति शान्ति शान्तिः यश्चन्दसाम् ऋषभो विश्वरूपः छन्दोऽभ्योऽध्यमृतात् सम्बभूव समेन्द्रो मेधया स्पृणोतु अमृतस्य देवधारणो भूयासम् शरीरम् मे विचर्षणम् जिह्वा मे मधुमत्तमा कर्णाभ्याम्भूरिविश्रुवम् ब्रह्मण कोशोऽसि मेधया पिहितः श्रुतम् मे गोपाया मेधा देवी जुषमालानागा विश्वाची भद्रा सुमनस्यमाना त्वया जुष्टानुदमाना दुरुक्ताः बृहद्वदेम विदते सुवीराः त्वया जुष्ट ऋषिर्भवति देवि त्वया ब्रह्मा गतश्रीरुदत्वया त्वया जुष्टश्चित्रम् विन्दते वसुसानो जुषस्वद्रविणो न मेदे मेधा महेन्द्रो ददातु मेधाम् देवी सरस्वती मेधा मे अश्विना उवावा दत्ताम् पुष्करस्रजा अप्सरासु च या मेधा गन्धर्वेषु चयन्मनः दैवी मेधा सरस्वती सा मेधा सुरभिर्जुषताग स्वाहा आमा मेधा सुरभिर्विश्वरूपा हिरण्यवर्णा जगती जगम्या ऊर्जस्वती पयसा पिन्वमाना सा मा मेधा सुप्रतीका जुषन्ता मयि मेधा मयि प्रजा मयि अग्निस्तेजो ददातु मयि मेधा मयि प्रजा मयि इन्द्र इन्द्रियम् ददातु मयि मेधा मयि प्रजा मयि सूर्यो व्राजो ददातु हंस हंसाय विद्महे परमहंसाय धीमहि तन्नो हंसः प्रचोदयात् ॐ शान्ति शान्ति शान्तिः सहना भवतु सहनौ भुनक्तु सह वीर्यम् करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः अथ पुरुषो ह वै नारायणो का प्रजा सृजेयेति नारायणात् प्राणो जायते मनः सर्वेन्द्रियाणि च खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी नारायणात् ब्रह्मा जायते नारायणात् रुद्रो जायते नारायणादिन्द्रो जायते नारायणात् प्रजापतयः प्रजायन्ते नारायणाद्वादशादित्या रुद्रावसवत्सर्वाणि च चन्दागुंसि नारायणादेव समुत्पद्यन्ते नारायणे प्रवर्तन्ते नारायणे प्रलीयन्ते ॐ अथ नित्यो नारायणः ब्रह्मा नारायणः शिवश्च नारायणः शक्रश्च नारायणः द्रावा पृथिव्यौ च नारायणः कालश्च नारायणः दिशश्च नारायणः ऊर्ध्वश्च नारायणः अधश्च नारायणः अन्तर्बहिश्च नारायणः नारायण एवेदगुं सर्वम् यद्भूतम् यच्च भव्यम् निष्कलो निरञ्जनो निर्विकल्पो निराख्यातः शुद्धो देव एको नारायणः न द्वितीयोऽस्ति कश्चित् य एवम् वेद स विष्णुरेव भवति स विष्णुरेव भवति ओमित्यग्रे व्याहरे नमः इति पश्चात् नारायणायेत्युपरिष्टात् ओमित्येकाक्षरम् नमः इति द्वे अक्षरे नारायणायेति पञ्चाक्षराणि एतद्वै नारायणस्याष्टाक्षरम् पदम् योह वै नारायणस्याष्टाक्षरम् पदमद्येति अनभब्रुव सर्वमायुरेति विन्दते प्राजापत्यगुम् रायस्कोशम् गौपत्यम् ततो मृतत्वमश्नुते ततो मृतत्वमश्नुत इति य एवम् वेद प्रत्यगानन्दम् ब्रह्म पुरुषम् प्रणवस्वरूपम् अकार उकारमकार इति तानेकदा समपरत्तते ततोमिति यमुक्त्वा मुच्यते योगी जन्म संसारबन्धनात् ॐ नमो नारायणायेति मन्त्रोपासकः वैकुण्ठभुवनलोकम् गमिष्यति तदिदम् परम् पुण्डरीकम् विज्ञानगनम् तस्मात् ललितावन्मात्रम् ब्रह्मण्यो देवकी पुत्रो ब्रह्मण्यो मधुसूदनो सर्वभूतस्तमेकम् नारायणम् कारणरूपमकारपरब्रह्मोम् एकदतर्वशिरो यो दीते प्रातरदीयानो रात्रिकृतम् पापम् नाशयति सायमदीयानो दिवसकृतम् पापम् नाशयति माध्यन्दिनमादित्याभिमुखो दीयानः पञ्चपादकोपपादकात् प्रमुच्यते सर्ववेदपारायण पुण्यम् लभते नारायणसायुज्यमवाप्नोति य एवम् वेद इत्युपनिषत् सह नाभवतु सह नौ भुनक्तु सह वीर्यम् करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः स्वस्य प्रजाभ्यः परिपालयन्ता न्यायेन मार्गेण महीमहिषाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु।